इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। रक्षामन्त्री राजनाथ सिंहः तस्य मोरक्को देशस्य समकक्षी अब्दुल्लतीफ लोदी च ह्यः वेरिचिड नगरे टाटा एडवांस सिस्टम लिमिटेड TASL इत्यनेन स्थापितस्य भारतस्य प्रथमस्य वैदेशीय रक्षा विनिर्माण संयन्त्रस्य संयुक्त रूपेण उद्घाटनं कृतवन्तौ। उद्घाटनं भारत मोरक्को देशयोः विकसिते सामरिक सहभागित्वस्य कृते ऐतिहासिकः क्षणः इति वर्णयन् श्रीसिंहः अवदत् यत् भारतस्य आत्मनिर्भर भारतस्य परिकल्पना न केवलं स्वकीयावश्यकतानां निर्माणम् अपितु विश्वस्य कृते उन्नततन्त्रज्ञानस्य तथा उच्चगुणवत्तायुतानाम् उत्पादानां विश्वसनीयस्रोतः भवितुं चास्ति। रक्षामन्त्रालयः अवदत् यत् अनुबन्धस्यान्तर्गतं TASL इतीमानि वाहनानि रॉयल मोरक्कन सेनायाः कृते प्रददाति। प्रारम्भिक वितरणानि अग्रिमे मासे आरभ्यन्ते इति। एतत् मोरक्को साम्राज्यस्य बृहत्तमं रक्षा विनिर्माण केन्द्रम् अस्ति यत् अफ्रीका देशे भारतीय निजी समवायेन द्वारा निर्मितं प्रथमं एतादृशं केन्द्रम् अस्ति। ह्यः एकसप्ततितमे राष्ट्रिय चलचित्र पुरस्कार समारोहे शाहरुख खानाय जवान इति चलचित्राय, विक्रांत मेसी इत्यस्मै 12वीं फेल इत्येतदर्थं च सर्वश्रेष्ठ नटत्वेन पुरस्काराः प्रदत्ताः। रानी मुखर्जी इत्येषा मिसेज चटर्जी वर्सेज नॉर्वे इति चित्रफलकाय सर्वश्रेष्ठ अभिनेतृत्वेन पुरस्कारं प्राप्तवती। कटहल अ जैकफ्रूट मिस्ट्री इति हिन्दी सर्वश्रेष्ठ चलचित्रस्य पुरस्कारं प्राप्तवत्। एतदतिरिच्य सुप्रसिद्धः अभिनेता निर्देशकः निर्माता च मोहनलालः चलचित्रक्षेत्रे सर्वोच्चमान्यतारूपेण दादा साहब फाल्के इति पुरस्कारेण सम्मानितः। ह्यः नवदिल्ल्यां विज्ञानभवने अयं कार्यक्रमः आयोजितः। राष्ट्रपति द्रौपदी मुर्मू इत्येषा विजेतृभ्यः पुरस्कारान् प्राददात्। चलचित्र निर्माणस्य कथा कथनस्य अभिनयस्य च उत्कृष्टतायाः उत्सवार्थं विभिन्नेषु वर्गेषु पुरस्काराः प्रदत्ताः। अस्मिन् अवसरे उत्पलदत्तः सर्वश्रेष्ठ चलचित्र विमर्शकस्य राष्ट्रिय चलचित्र पुरस्कारं असमिया भाषायाः चलचित्रस्य विषये तस्य विस्तृत महत्वपूर्णाय च विमर्शात्मक लेखनाय प्राप्तवान्। दीपावली षष्ठी इत्यादिषु प्रमुखेषु उत्सवेषु बहुसंख्यकाः जनाः आगच्छन्ति। एतत् मनसि निध्याय रेलमन्त्री अश्विनी वैष्णवः उत्सवेषु 12,000 विशेष रेलयानानि चालयिष्यति इति घोषितवान्।
This year, a target of 12,000 special trains was set. So I would like to say with great satisfaction that out of these 12,000, 10,000 trains have already been notified, even before the peak rush of October. This has never happened in the history of Indian Railways. Around 150 trains will be totally unreserved, meant for last-minute movement. Another 50 trains will be notified in the next 2 to 3 days. The movement of special trains will begin from October 1st and will continue till around November 15th.
युवा प्रकरणानां क्रीडा मंत्री डॉ मनसुख मांडविया अवदत् यत् भारतं वैश्विक प्रतियोगितानां आयोजन क्षमता अन्तर्राष्ट्रिय क्रीडानां केन्द्ररूपेण उद्भूतमस्ति। नवदिल्ल्याम् अस्मिन् मासे 25 दिनांकात् आरभ्यमानस्य 25,000-तम वर्षस्य विश्व पैरा एथलेटिक्स चैंपियनशिप इत्यस्य सज्जतायाः निरीक्षणं कुर्वन् श्री मांडवीयः अवदत् यत् शततोप्यधिकाः देशाः भागं गृहीतवन्तः। एषा न केवलं भारतेन आयोजिता बृहत्तमा पैरा एथलेटिक्स स्पर्धा अस्ति, अपितु देशस्य क्षमतायाः समृद्ध संस्कृतेः एकीकृत शक्तिरूपेण क्रीडायाः प्रतिबिम्बः अस्ति। भारत ऋतु विज्ञान विभागेन आगामि दिनद्वयोः पश्चिम बंगाल ओडिशा छत्तीसगढ़ राज्यानां पृथक पृथक स्थानेषु अत्यधिक वृष्टेः ऑरेंज अलर्ट इति नारंगवर्णीय संचेतना प्रसारितास्ति इति वार्ताः।